सर्वेषां पाणिनीव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं क्रियते. भगिनी एकवारं श्लोकान् स्मारयतु.
ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दौता गिरा पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगुरुभ्यो नमः.
धन्यवादाः भगिनी. धातुविज्ञानं द्वितीयभागः इति विषयः प्रवर्तमानः अस्ति. संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति. तेषां धातूनाम् औपदेशिकरूपाणि धातुपाठे स्थापितानि. धातुपाठे उपदेशावस्थायां धातोः रूपं दत्तमस्ति, किन्तु प्रक्रियाकाले लौकिकरूपसाधनवेलायाम् उपदिष्टधातुतः लौकिकधातुः साधनीयः. उपदिष्टधातौ अनुबन्धवर्णाः सन्ति चेत् तेषां निष्कासनं प्रथमं कार्यं. निरनुबन्धधातुम् आदौ साधयामः, पश्चात् धातोः औपदेशिकरूपम् आश्रित्य धातोः उपदेशावस्थायां तस्य रूपम् आधारीकृत्य बहिर्भूतं निमित्तम् अनपेक्ष्य चत्वारि प्राकृतिकानि कार्याणि करणीयानि. सत्वं नत्वं नुमागमः उपधादीर्घः इति चत्वारि कार्याणि करणीयानि. अनुबन्धलोपानन्तरम् अशोपदेशधातुषु इत्युक्ते उपदेशावस्थायां धातोः आदौ मूर्धन्यषकारः अस्ति चेत् धात्वादेः शहसः इति सूत्रेण तस्य मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आदिष्टः भवति. उदाहरणार्थं स्थाधातुतः स्था इति लौकिकरूपं साधितम्. पश्चात् स्था लौकिकधातुतः स्थानं स्थापनं तिष्ठति इत्यादीनि रूपाणि साधयामः. अणोपदेशधातुषु इत्युक्ते धातोः आदौ उपदेशावस्थायां मूर्धन्यणकारः अस्ति चेत् तस्य स्थाने दन्त्यनकारः आयाति णोनः इति सूत्रेण. धातोः मूलरूपं णम अस्ति चेत् अनुबन्धलोपे सति अणं भवति. तत्र णोनः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति. तेन नम् इति लौकिकधातुः नम् धातुतः नमति, नत्वा, नतवान् इत्यादीनि रूपाणि साधयामः. तृतीयं कार्यमस्ति नुमागमः. इदित् धातुषु नुमागमः भवति. यस्य धातोः ह्रस्व इकारस्य इति संज्ञा अस्ति सः धातुः इदित् धातुः, अथवा यस्मिन् धातौ ह्रस्व इकारस्य इति संज्ञा भवति सः धातुः इदित् धातुः. धातुः इदित् अस्ति चेत् इदितोनं धातोः इति सूत्रेण नुमागमः भवति. नुमागमः मित् अस्ति. नुम् इत्यस्मिन् मकारः इति संज्ञकः, उकारः अपि इति संज्ञकः, दन्त्यनकारः एव तत्र अवशिष्यते. नुम् आगमः मित् अस्ति इति कारणतः सः नुमागमः कुत्र आयाति इति प्रश्नः. अपि च इदितोनुम् धातोः इत्यस्मिन् सूत्रे इदितः इति षष्ट्यन्तं पदमस्ति, धातोः इति अपि षष्ट्यन्तं पदमस्ति. तयोर्मध्ये विशेषणविशेष्यभावः अस्ति. इदितः इति षष्ट्यन्तं पदं धातोः इत्यस्य विशेषणमस्ति. यद्यपि सूत्रे षष्ट्यन्तं पदमस्ति तथापि तस्य अर्थः षष्टिस्थाने योगा इति सूत्रेण स्थानी इति नास्ति. इदितः धातोः नुमागमः भवति. नुम् आगमः अस्ति. नुमागमः कुत्र भवति इति प्रश्नः. नुम् आगमः मिदचोन्त्यात् परः इति सूत्रेण सः आगमः मित् अस्ति इति कारणतः तस्मिन् शब्दे अन्तिम आचवर्णस्य अनन्तरम् आयाति. अपि च तस्य अवयवः अपि भवति. इत्युक्ते तस्मिन् शब्दे बहवः अचवर्णाः सन्ति चेत् अन्तिम आचवर्णस्य अनन्तरं सः नुमागमः भवति. नुमागमरूपेण इदित् धातुषु यः नकारः आगतः सः नकारः यथावत् न तिष्ठति, तस्य रूपपरिवर्तनं भवति. इत्युक्ते तत्र सन्धिकार्याणि भवन्ति. उदाहरणार्थं वदौ धातुतः अनुबन्धलोपे सति वद् इति रूपम् आयाति. पश्चात् नुमागमः भूत्वा दन्त्यनकारसहितं रूपं वन्द् आयाति पश्चात् दन्त्यनकारस्य स्थाने नश्चापदान्तस्य झलि इति सूत्रेण दन्त्यनकारस्य स्थाने अनुस्वारादेशः भवति पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः परसवर्णः इत्युक्ते तत्र द इति परवर्णः अस्ति तस्मिन् वर्गे पञ्चमव्यञ्जनम् अस्ति दन्त्यनकारः तदर्थम् अन्तिमं रूपं वन्द् एव भवति किन्तु त्रम्प् कम्प् इत्यादिषु लौकिकधातुषु भेदम् अवगन्तुं शक्नुमः त्रपिम् इत्यस्मात् त्रम्प् इत्युक्ते दन्त्यनकारयुक्तं रूपम् आयाति पश्चात् अनुस्वारः तत्पश्चात् परसवर्णादेशः भूत्वा मकारसहितं रूपं त्रम्प् इति रूपम् आयाति एवमेव कम्प् सन्धिकार्यद्वयं वयं दृष्टवन्तः नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयं वयं दृष्टवन्तः नश्चापदान्तस्य झलि इति सूत्रं वयं पठितवन्तः खलु सूत्रार्थः कः अपदान्त नकारस्य मकारस्य च स्थाने झल् प्रत्याहारस्थवर्णः परः अस्ति चेत् नित्यरूपेण इदं कार्यं नित्यरूपेण भवति वैकल्पिकं नास्ति नश्चापदान्तस्य झलि सूत्रस्य कार्यं नित्यरूपेण भवति अपदान्तकार्यम् इदं कम्प् धातोः प्रसङ्गे किञ्चित् चिन्तनं कुर्मः कप्यों इति मूलधातुः अस्ति तस्मात् अनुबन्धलोपे सति कप् भवति इदितोनं धातोः इति सूत्रेण धातुः इदित् धातुः अस्ति इति कृत्वा नकारः अन्तिम अचुवर्णस्य अनन्तरम् आयाति तेन कन्प् इत्युक्ते दन्त्यनकारयुक्तं रूपम् आयाति तत्र पकारः झल् वर्णः अस्ति कन्प् इति पदं नास्ति अपदान्तनकारः अस्ति इति कृत्वा दन्त्यनकारस्य स्थाने अनुस्वारादेशः नश्चापदान्तस्य झलि इति सूत्रेण भवति अपदान्तनकारस्य मकारस्य च स्थाने अनुस्वारादेशः झलि परे भवति इति सूत्रं वदति एकम् अन्यत् सूत्रमपि वयं पठितवन्तः खलु गते सप्ताहे मोनुस्वारः इति सूत्रमस्ति तेन सूत्रेण अपि अनुस्वारादेशः एव भवति किन्तु तत्र भिन्नानि निमित्तानि आवश्यकानि मोनुस्वारः इति पदान्तकार्यम् इत्युक्ते यस्य पदसंज्ञा अस्ति तत्र एव तस्य कार्यं भवति मोनुस्वारः इति सूत्रं पदान्त अनुस्वारादेशः तत्र निमित्तं हलि परे पदान्त अनुस्वारादेशः हलि परे भवति तत् कार्यमपि नित्यरूपेण भवति वैकल्पिकं नास्ति नश्चापदान्तस्य झलि सूत्रम् अपदान्तकार्यं मोनुस्वारः सूत्रेण पदान्तकार्यं भवति किन्तु द्वयोः सूत्रयोः प्रसङ्गे निमित्तं भिन्नम् अस्ति नश्चापदान्तस्य झलि झलि परे कार्यं भवति मोनुस्वारः इत्यनेन हलि परे कार्यं भवति अपि च तस्मात् परम् अनुस्वारस्य ययि परसवर्णः इति सूत्रमपि वयं पठितवन्तः कप्यों इति धातोः प्रसङ्गे नश्चापदान्तस्य झलि इति सूत्रेण अपदान्तनकारस्य स्थाने अनुस्वारादेशः भवति इति कार्यं वयं दृष्टवन्तः तस्मात् परं तत्र अनुस्वारः अनुस्वाररूपेण न तिष्ठति अनुस्वारस्य स्थाने परसवर्णादेशः भवति परसवर्णः इत्युक्ते अनुस्वारस्य अनन्तरं पकारः अस्ति पकारः यै वर्णः अस्ति इति कृत्वा तत्र पवर्गीयपञ्चमसदस्यः आदिष्टः भवति तेन त्रौम्प् मकारयुक्तं रूपं तत्र आयाति पवर्गस्य अन्तिम अनुनासिकव्यञ्जनं तत्र आदेशरूपेण आयाति अनुस्वारस्य ययि परसवर्णः इत्यस्मिन् सूत्रे कस्य परसवर्णः इति प्रश्नः आयाति परसवर्णः कः परसवर्णस्य निर्णयः कथं भवति अनुस्वारस्य अनन्तरं यः वर्णः अस्ति तस्य सवर्णः इति तत्र विषयः अनुस्वारस्य अनन्तरं यः वर्णः अस्ति तस्य सवर्णः इत्युक्ते तस्मिन् वर्गे यः वर्णः अनुस्वारसदृशः अस्ति सः वर्णः आदिष्टः भवति परसवर्णस्य निर्णयार्थं तत्र एकं परिभाषासूत्रमपि आवश्यकं परसवर्णस्य निर्णयार्थं स्थानेन्तरतमः इति परिभाषासूत्रम् आवश्यकं स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसादृश्येन परसवर्णस्य निर्णयः भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण किमुच्यते वर्गीयव्यञ्जने परे इत्युक्ते अनुस्वारस्य अनन्तरं वर्गीयव्यञ्जनमस्ति चेत् तदा अनुस्वारस्य स्थाने तत्तत्वर्गीयपञ्चमसदस्यः अनुस्वारेण सदृशः तत्तत्वर्गीयपञ्चमसदस्यादेशः भवति वर्गीयव्यञ्जने परे इति मुख्यविषयः पञ्चवर्गाः सन्ति खलु, कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः. वर्गीयव्यञ्जने परे एव तत्तत्वर्गीय पञ्चमसदस्यादेशः भवति इति एकः विषयः. उच्चारणस्थानसादृश्येन अयं निर्णयः क्रियते. वर्णानाम् उच्चारणस्थानं भवति खलु. उदाहरणार्थम् अनुस्वारस्य उच्चारणस्थानं नासिका. अनुस्वारस्य उच्चारणं नासिकया भवति. वर्गीय अनुनासिकव्यञ्जनानि सन्ति खलु, पञ्चमं व्यञ्जनं. वर्गीय अन्तिम अनुनासिकव्यञ्जनानाम् उच्चारणं मुखसहितनासिकया भवति. न केवलं नासिका, मुखसहितनासिकया तेषां वर्णानाम् उच्चारणं भवति. अनुनासिकव्यञ्जनानाम् उच्चारणं भवति. अत्र उच्चारणस्थानसादृश्यमस्ति, तेन एवं रीत्या परसवर्णस्य निर्णयः भवति. अपि च अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपि कार्यं नित्यरूपेण भवति. अत्रापि वैकल्पिकं नास्ति. वर्गीयव्यञ्जने परे पञ्चमसदस्यादेशः भवति. ययि प्रत्याहारे य वा ल एते वर्णाः अपि सन्ति. यावला वर्णाः परः सन्ति चेत् कार्यं कीदृशं भवति इति प्रश्ने सति यावला वर्णाः वर्गीयव्यञ्जनानि न. यावला वर्णाः ययि प्रत्याहारे सन्ति किन्तु वर्गीयव्यञ्जनानि न सन्ति. ययि प्रत्याहारे सन्ति चेत् एतेषु अन्यतमवर्णः, या वर्णः परः अस्ति चेत् किं कार्यं, वा वर्णः परः अस्ति चेत् किं कार्यं, ला वर्णः परः अस्ति चेत् किं कार्यम् इत्यपि ज्ञातव्यम्. अनुस्वारस्य अनन्तरं यकारः अस्ति चेत् तदा अनुस्वारस्य स्थाने अनुनासिकयकारः आदिष्टः भवति. अनुस्वारस्य अनन्तरं वकारः अस्ति चेत् सन्धिकार्यात् परम् अनुनासिकवकारः आदिष्टः भवति. अनुस्वारस्य अनन्तरं लकारः अस्ति चेत् अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य कारणेन अनुनासिकलकारः आदिष्टः भवति. अनुस्वारात् परं रेफः अस्ति चेत् तस्य परसवर्णः नास्ति. इत्युक्ते रेफस्य अनुनासिकसवर्णः नास्ति इति कृत्वा तत्र रेफ यथावत् तिष्ठति. अनुस्वारस्य ययि परसवर्णः इति सूत्रेण कार्यं पदस्य मध्ये एव भवति. पदान्तकार्यं नास्ति, अपदान्तकार्यम्. अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य कार्यमपि अपदान्तकार्यम्. किन्तु पदान्ते अनुस्वारः अस्ति चेत् किं भवति इति अवगन्तुं वयम् अन्यत् सूत्रं पठितवन्तः. वा पदान्तस्य इति सूत्रेण किमुच्यते, पदान्त अनुस्वारस्य स्थाने ययि वर्णे परे विकल्पेन परसवर्णादेशः भवति. अनुस्वारस्य ययि परसवर्णः इति सूत्रात् बहूनि पदानि अनुवृत्तिरूपेण वा पदान्तस्य इत्यस्मिन् सूत्रे अनुवृत्तानि भवन्ति. वा पदान्तस्य इति सूत्रेण पदान्तकार्यं भवति. एतदवगन्तुम् एकम् उदाहरणं मम पुरतः अस्ति. त्वं करोषि इति पदद्वयमस्ति. त्वम् इति एकं पदमस्ति, करोषि इति अन्यत् पदमस्ति. त्वम् इत्यत्र अन्तिममकारः आदौ मोनुस्वारः इति सूत्रेण अनुस्वारः भवति. तेन अनुस्वारयुक्तं रूपं त्वम् आयाति. त्वम् इति एकं पदमस्ति, पदान्ते अनुस्वारः अस्ति इति कारणतः पदान्त अनुस्वारस्य स्थाने परसवर्णादेशः भवति. परसवर्णादेशः कथं भवति, भवन्तः इच्छन्ति चेत् एकवारं लिखन्तु. त्वं करोषि, त्वम् इत्यत्र अन्ते अनुस्वारः अस्ति, पश्चात् ककारः अस्ति, कवर्गस्य पञ्चमसदस्यः ञकारः. तत्र त्वं करोषि, त्वं करोषि इत्युक्ते अनुस्वारसहितं रूपम् एकं रूपं, परसवर्णयुक्तं रूपम् अन्यत् रूपं. तत्र रूपद्वयं सिद्ध्यति वा पदान्तस्य इति सूत्रेण. वा पदान्तस्य इत्यस्य कार्यं पदान्तकार्यम् अपि च विकल्पेन भवति. इत्युक्ते वैकल्पिकं रूपम् अन्यद् रूपम् अस्ति. तत्र रूपद्वयं सम्भवति वा पदान्तस्य इति सूत्रेण. वा पदान्तस्य इति सूत्रम् अवगन्तुम् एकम् अन्यत् पदं वदामि. इच्छन्ति चेत् लिखन्तु. सङ्गच्छति. सम् इति एकं पदं, गच्छति इति अन्यत् पदं. सम् इति उपसर्गः. उपसर्गः अपि पदमेव. इत्युक्ते अत्र सन्धिकार्यं भवति. सम् इति एकं पदं, गच्छति इति अन्यत् पदं. सम् इत्यस्मिन् मकारः अस्ति. मोनुस्वारः सूत्रं पदान्तकार्यं करोति खलु. तदर्थं मोनुस्वारः सूत्रेण अन्तिममकारस्य स्थाने अनुस्वारादेशः भवति. आदौ गच्छति इत्यत्र गकारः अस्ति, कवर्गीयव्यञ्जनम् अस्ति, सः गकारः यै वर्णः अस्ति, अतः वापदान्तस्य इति सूत्रेण कवर्गीयपञ्चमसदस्यः ञकारः आयाति. अत्र कार्यं वैकल्पिकं, तेन साङ्गच्छति सङ्गच्छति. अनुस्वारस्य उच्चारणं नासिकया भवति, साङ्गच्छति सङ्गच्छति. सङ्गच्छति इत्यत्र ञकारसहितं रूपम् इत्युक्ते परसवर्णसहितं रूपम् एकमस्ति, अनुस्वारसहितं रूपम् अन्यदस्ति. तत्र विकल्पेन कार्यं भवति वापदान्तस्य इति सूत्रेण. वापदान्तस्य इत्यस्मिन् सूत्रे अपि निमित्तं तु यै वर्णः एव, यै प्रत्याहारे सशसाः वर्णाः न सन्ति. सशसः वर्णाः न सन्ति इति कारणतः तत्र परसवर्णादेशः न भवति. तदर्थमेव हंसः कंसः एतादृशेषु पदेषु अनुस्वारः दृश्यते. अंश्यः कंसः सिंहः इत्यादिषु पदेषु एकवारं लिखित्वा पश्यन्तु, तत्र अनुस्वारयुक्तं रूपं साधु. किमर्थं चेत् यै प्रत्याहारे सशसः वर्णाः न सन्ति इति कृत्वा सशसः एतेषु चतुर्षु वर्णेषु अन्यतमवर्णः परः अस्ति चेत् तदा परसवर्णादेशः न भवति. अपि च गतवर्गे किञ्चित् इति पदस्य प्रसङ्गे एकः प्रश्नः आगतः. किञ्चित् इत्यस्मिन् प्रसङ्गे किं भवति? किञ्चित् इत्यत्र किम् इति एकं पदं, चित् इति अन्यत् पदं. तत्र संहिता अस्ति, द्वयोः पदयोः मध्ये सामीप्यमस्ति, नैकट्यमस्ति, अतः सन्धिकार्यं कुर्मः. अत्र द्वयोः पदयोः मध्ये सन्धिः एव अस्ति, न तु समासः. समासे सन्धिः नित्यः, किन्तु अत्र केवलं सन्धिः एव, समासः नास्ति. किम् इति एकं पदं, चित् इति अन्यत् पदं. तयोः द्वयोः पदसंज्ञा अस्ति इत्युक्ते तयोः अन्ते सुप्रत्ययः अस्ति इति कृत्वा सुबन्तं, पदद्वयं सुबन्तम् अस्ति, द्वयोः पदसंज्ञा अस्ति इति कृत्वा पदान्तकार्यं भवति. अस्माकं करपत्रे चत्वारि सूत्राणि दत्तानि खलु, मोनुस्वारः सूत्रेण पदान्तकार्यं भवति, वापदान्तस्य इत्यनेन पदान्तकार्यं भवति. किम् इत्यत्र अन्ते मकारः अस्ति, तस्य मकारस्य स्थाने मोनुस्वारः सूत्रेण अनुस्वारादेशः भवति. अनुस्वारसहितं रूपम् आगतं खलु, अनुस्वारसहितं रूपं किम् अस्ति, तस्मात् परं चित् अस्ति. चकारः यै प्रत्याहारस्थवर्णः इति कृत्वा चवर्गीय अन्तिम अनुनासिकव्यञ्जनं पञ्चमसदस्यः तत्र आदिष्टः भवति, वापदान्तस्य इति सूत्रेण भवति. किमर्थं चेत् किम् इति पदमस्ति, पदान्तकार्यं भवनीयम् अत्र. अत्र मोनुस्वारः अपि च वापदान्तस्य इति सूत्रद्वयेन कार्यं भूत्वा रूपद्वयं सिद्ध्यति. एकं रूपमस्ति अनुस्वारयुक्तं रूपं क्यूचित्, अन्यत् रूपमस्ति परसवर्णयुक्तं रूपं किञ्चित्. इत्युक्ते चवर्गीय अन्तिम अनुनासिकव्यञ्जनं लिखित्वा तद्रूपं लेखनीयम्. अत्र विकल्पेन कार्यं भवति क्यूचित् किञ्चित् इति रूपद्वयमस्ति. किञ्चित् इति पदस्य प्रसङ्गे नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः द्वयोः कार्यं नास्ति. नश्चापदान्तस्य झलि कार्यम् अपदान्तकार्यम्, अनुस्वारस्य ययि परसवर्णः कार्यमपि पदमध्ये अनुस्वारः अस्ति चेदेव तस्य कार्यं भवति. मोनुस्वारः इति सूत्रस्य प्रसङ्गे किं ज्ञातव्यम्? तस्मिन् वाक्ये तत् पदमेव अन्तिमं पदमस्ति चेत्, इत्युक्ते परे कोऽपि अन्यवर्णः नास्ति चेत् तदा अनुस्वारादेशः न भवति. मोनुस्वारः सूत्रेण पदान्तकार्यं भवति तत्तु सत्यमेव, किन्तु तस्य पदस्य अनन्तरं कोऽपि अन्यवर्णः नास्ति, तत् पदमेव अन्तिमं पदं तस्मिन् वाक्ये अस्ति चेत् तदापि मकारस्य स्थाने अनुस्वारादेशः न भवति. व्यञ्जने परे इत्युक्ते हलि परे इति उक्तमस्ति खलु, व्यञ्जने परे एव मोनुस्वारः सूत्रेण कार्यं भवति. अपि च अच्वर्णे परे किं भवति? कार्यं न भवति. गृहम् अस्ति इत्यत्र गृहम् इत्यस्य अन्ते मकारः अस्ति, परशब्दस्य आदिमवर्णः अकारः अस्ति, इत्युक्ते अच्वर्णः परः अस्ति इति कृत्वा अनुस्वारादेशः न भवति. मोनुस्वारः कार्यं हलि परे एव भवति, व्यञ्जने परे एव भवति, अच्वर्णः परः अस्ति चेत् न भवति. तस्मात् परं कोऽपि अन्यः वर्णः नास्ति चेदपि सन्धिकार्यम् अभूत्वा तत्र मकारः यथावत् तिष्ठति. उदाहरणार्थं गृहम् इति पदम् अन्तिमं पदं चेत् तस्मिन् वाक्ये तत्र अनुस्वारसन्धिः न भवति. मोनुस्वारः सूत्रेण अनुस्वारसन्धिः भवति. एतावत्पर्यन्तं गतवर्गस्य प्रसङ्गे सारांशरूपेण किञ्चित् उक्तवती. अन्यः विषयः इदिति धातुषु विशिष्टानि कानिचन कार्याणि भवन्ति, अनिदिति धातुषु अपराणि कार्याणि कानिचन भवन्ति इति पठितम्. इदिति धातुषु नुमागमः भवति, अनिदिति धातुषु एकं विशिष्टं कार्यं भवति. तत् किम्? अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति. अनिदित् धातुषु हलन्तधातुषु उपधायां स्थितस्य नकारस्य लोपः कितिनिति प्रत्यये परे भवति. अनिदित् धातुषु तत्कार्यम् एकं विशिष्टं कार्यं, तदवगन्तुं वयं धातुद्वयं परिशीलितवन्तः गते वर्गे. वन्द् धातुः बन्ध् धातुः, द्वयोः धातोः रूपाणि वयं परिशीलितवन्तः. वदौ इति इदित् धातुः, तस्मात् नुमागमः भूत्वा वन्द् इति लौकिकधातुः आगतः. किन्तु बन्धधातुः मूले एव तत्र दन्त्यनकारः आसीत्, नुमागमरूपेण तत्र दन्त्यनकारः न आगतः. बन्धधातौ दन्त्यनकारः उपदेशावस्थायाम् एव मूले एव दन्त्यनकारः तत्र आसीत्. इदित् धातवः अनिदित् धातवः द्वयोः परिशीलनेन किम् अवगतवन्तः? इदित् धातुषु नुमागमरूपेण यः दन्त्यनकारः आगतः सः दन्त्यनकारः लौकिकरूपेषु सर्वत्र तिष्ठति. नुमागमरूपेण यः नकारः आगतः सः नकारः न अपगच्छति. तदर्थमेव वन्द् धातोः रूपाणि वन्दितः, वन्दितवान्, वन्दित्वा, वन्द्यते इत्यादीनि रूपाणि द्रष्टुं शक्नुमः. तत्र नुमागमरूपेण आगतः नकारः तिष्ठति इदित् धातुषु. किन्तु बन्धधातुः अनिदित् धातुः, अनिदित् धातुषु अनिदितां हल उपधायाक्निति इति सूत्रेण उपधायां स्थितस्य नकारस्य लोपः भवति कितिनिति प्रत्यये परे. क्निति इति सूत्रे उक्तमस्ति खलु, तदर्थं कितिनिति प्रत्यये परे तस्य लोपः भवति. इत्युक्ते बन्धधातौ यः नकारः दृश्यते सः नकारः नुमागमः भूत्वा, नुमागमकारणात् न आगतः, सः धातुः अनिदित् अस्ति इति कृत्वा अनिदित् धातुः अपि च हलन्तधातुः. तदर्थम् उपधायां स्थितस्य दन्त्यनकारस्य लोपः कित् नित् प्रत्यये परे भवति. धातुः बन्ध् किन्तु तस्य रूपाणि कथं भवन्ति? बद्ध्वा, बद्धः, बद्धवान्, बध्यते इमानि रूपाणि कृदन्तरूपाणि बन्धधातोः. बद्धः इत्यत्र दन्त्यनकारस्य लोपः अभवत् अनेन विशिष्टसूत्रेण एव, अनिदितां हल उपधायाक्निति इति सूत्रेण. एतेषु कृदन्तरूपेषु धातोः परं कित् प्रत्ययाः सन्ति. कित् प्रत्ययाः सन्ति इति कारणतः अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भूत्वा बद्ध्वा, बद्ध्वा इति क्त्वान्तरूपं, बद्धः क्तान्तरूपं, बद्धवान् क्तवतुरूपं, बध्यते कर्मणि लट्, कर्मणि लट् इत्युक्ते यक् प्रत्ययः विधीयते, यक् कित् अस्ति इति कृत्वा तत्रापि कित् प्रत्यये परे नकारलोपः अनिदित् धातुषु भवति. कित् प्रत्ययः परः नास्ति चेत् नकारलोपः न भवति. ल्युट् प्रत्ययान्तरूपं बन्धनं, बन्धव्यं, तव्यत् रूपं. ल्युट् प्रत्ययः कित् नास्ति, तव्यत् कित् नास्ति, अनियर् कित् नास्ति. तेषु स्थलेषु धातुः अनिदित् चेदपि निमित्तरूपेण कित् प्रत्ययः नास्ति चेत् नकारलोपः न भवति. तदर्थमेव बन्ध् धातुतः बन्धनं, बन्धव्यं, बन्धनीयम् इत्यादीनि पदानि सिद्ध्यन्ति. अनिदित् इदित् द्वयोः धात्वोः भेदः अयम्. अपि च इदित् इति कथनेन इत् इत् यस्य सः, प्रथम इत् इत्यस्य अर्थः ह्रस्व इकारः, द्वितीय इत् इत्यस्य अर्थः इत् संज्ञकः. यस्मिन् धातौ ह्रस्व इकारः इत् संज्ञकः अस्ति ते धातवः इदित् धातवः. प्रथम इत् इत्यस्य अर्थः ह्रस्व इकारः. कथं ज्ञायते केवलं ह्रस्व इकारः इति? एतदवगन्तुम् अस्माभिः एकं परिभाषासूत्रं पठनीयम्. इदित् विग्रहवाक्यम् इत् इत् यस्य सः, प्रथम इत् इत्यस्य अर्थः ह्रस्व इकारः. इकारस्य अष्टादशप्रभेदाः सन्ति, किन्तु केवलं ह्रस्व इकारैः एव किमर्थं स्वीकरणीयम् इति प्रश्नः आयाति. तदर्थं तपरस्तत्कालस्य इति परिभाषासूत्रम् अस्माभिः ज्ञातव्यम्. अद्य वयं तपरस्तत्कालस्य इति सूत्रस्य प्रसङ्गे अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. तस्मात् पूर्वं वयं सर्वे मिलित्वा किञ्चित् अभ्यासं कुर्मः. चत्वारि सूत्राणि पठितवन्तः खलु, नश्चापदान्तस्य झलि, मोनुस्वारः, अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य. चतुर्णां सूत्राणाम् अवगमनाय कानिचन पदानि वदामि, भवन्तः सर्वे इच्छन्ति चेत् लिखन्तु तत्र किं सूत्रं कार्यं करोति. कानिचन पदानि वदामि, अङ्कः, पङ्क्तिः, अङ्घ्रिः, गङ्गा, चम्पूः, विन्दति, घण्टा, अम्बा, पञ्जरं, कुञ्चितः, शङ्का, मुण्डनं, शान्तः, मन्दिरं. पुनः वदामि, अङ्कः, पङ्क्तिः, अङ्घ्रिः, गङ्गा, चम्पूः, विन्दति, घण्टा, अम्बा, पञ्जरं, कुञ्चित, शङ्का, मुण्डनं, शान्तः, मन्दिरम्. अत्र नरेश महोदय, अङ्कः, पङ्क्तिः, अङ्घ्रिः, गङ्गा, चम्पू, एतेषां प्रसङ्गे किञ्चित् वदतु.
आं भगिनि, परन्तु अहम् एकः प्रश्नः वदामि. उच्चारणविषये भवती वदयों कपयों वदति, अत्र तु वदन् कपिन् पश्यामि, परन्तु भवती वदयों कपयों वदति, तं कथमस्ति?
तेषु धातुषु अन्ते अनुनासिके इकारः अस्ति इति सर्वेषाम् अवगमनाय वदनावसरे तादृशम् उच्चारणं कुर्वती अस्मि, तावदेव.
अस्तु भगिनि, अङ्कः, अङ्कः मूलरूपम् अङ्कः अस्ति, अकार, तत् अकार अनुनासिकः अस्ति, तदपि ककारः विसर्गः. अत्र अकारस्य प्रथम तु
महोदय, मम आशयः कः इत्युक्ते, अत्र परसवर्णादेशः भवति वा? भवति चेत् केन सूत्रेण परसवर्णादेशः भवति? अत्र विकल्पेन रूपद्वयम् अस्ति वा, एकमेव रूपम् अस्ति वा? अत्र परसवर्णयुक्तं रूपं लेखनीयं वा, नो चेत् अनुस्वारयुक्तं रूपं लेखनीयं वा? तस्मिन् प्रसङ्गे वदतु सूत्रं किम्.
आम्, अङ्कः अत्र अनुस्वारस्य यै परसवर्णस्य परसवर्णः सूत्रेण अङ्कः तत्र कवर्गस्य अन्तिम स्वरः ञकार आगतः, अङ्कः भवति.
उत्तमं महोदय, अत्र एकमेव रूपं सिद्ध्यति, पदस्य मध्ये अनुस्वारः अस्ति इति कृत्वा अनुस्वारस्य स्थाने परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः इति सूत्रेण नित्यरूपेण एकमेव रूपं सिद्ध्यति, अनुस्वारयुक्तं रूपम् असाधु. महोदय, एवमेव पङ्क्तिः,
पङ्क्तिः तत्रापि पङ्क्तिः अनुस्वारस्य ययि परसवर्णः भवति, तत्र ककारः अस्ति, ककारस्य पूर्वं कवर्गस्य अन्तिम वर्णः ञा आगतः पङ्क्ति पङ्क्तिः भवति अत्रापि अनुस्वारस्य परसवर्णः भवति कवर्गस्य अन्तिमस्वरः अन्तिमवर्णः तत्रापि अनुस्वारस्य यै परसवर्णः भवति घ्री अस्ति तत्र अपि कवर्गस्य अन्तिम वर्णः आगतः अङ्घिः अङ्घी
अत्र पदमस्ति पुनः उच्चारणं सम्यक् करोमि अङ्घ्रिः पादद्वयम् अङ्घ्रियुगलम् अङ्घ्रिः तत्रापि घकारः परवर्णः अस्ति अनुस्वारात् परं घकारः अस्ति घकारः कवर्गीयव्यञ्जनम् अस्ति इति कृत्वा परसवर्णादेशः नित्यरूपेण भूत्वा एकमेव रूपं सिद्ध्यति अनुस्वारस्य यै परसवर्णः इति सूत्रेण गङ्गा इति पदमस्ति वदतु महोदय
गङ्गा तत्रापि अनुस्वारस्य यै परसवर्णः गकारः अस्ति तदा कवर्गस्य अन्तिम वर्णः ञ आगतः गङ्गा
अत्रापि परसवर्णयुक्तं रूपम् एकमेव रूपं तत्र सिद्ध्यति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण चम्पूः वदतु महोदय
चम्पूः तत्र अनुनासिकः अस्ति परन्तु तत्र प्रथमा तु नश्च पदान्तस्य झलि तत्र अनुनासिकः आगतः चम्पू अनुनासिकः अस्ति अनन्तरं अनुस्वारस्य यै परसवर्णः मकारः आगतः चम्पूः चम्पूः भवति
उत्तमं धन्यवादाः महोदय चम्पूरामायणम् इति वयं श्रुतवन्तः खलु चम्पूः इत्यत्रापि अनुस्वारयुक्तं रूपम् असाधु परसवर्णयुक्तं रूपमेव साधु भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशं कृत्वा नित्यरूपेण एकमेव रूपं लेखनीयम् अन्यानि उदाहरणानि अपि एकवारम् अवलोकयामः गोमति भगिनी कृपया एकवारं वदतु विन्दति विन्दति इत्यत्र पदं कथं लेखनीयं तत्र परसवर्णादेशः भवति वा भवति चेत् केन सूत्रेण भवति
विन्दति तु पदमस्ति तत्र विद् धातुः अस्ति तत्र नुमागमम् नुमागमं भवति तु उविन्द अस्ति विन्द् इति तु पदं नास्ति अपदान्तम् अस्ति अत्र नश्च पदान्तस्य झलि सूत्रेण नकारस्य अनुस्वारः भवति तु विद् भवति सोरि विन्द भवति अनन्तरम् अनुस्वारस्य ऐ परसवर्णकार्यं करोति किमर्थं चेत् एतदपि पदं नास्ति अतः विन्द इति अनुस्वारस्य नकारः भवति अनन्तरं एकमेव रूपं विकल्पेन किमपि न भवति विन्द इति भवति अनन्तरं ति योजय अति योजयामः चेत् विन्दति इति रूपं भवति
उत्तमं विन्दति रूपं साधयितुं धातोः मूलरूपं विद्लु लाभे इत्यस्मिन् अर्थे तुदादिगणे अस्ति तस्य रूपं विन्दति प्राप्नोति इत्यस्मिन् अर्थे धातुः तुदादिगणे अस्ति किन्तु नकारः कुतः आगतः इत्युक्ते तत्र एकं विशिष्टं सूत्रम् अस्ति शेमुचादीनां वदतु
शेमुचादीनाम् उचादिगणं तुदादिगणे अन्तर्गणः अस्ति तत्र अष्टधातवः सन्ति विद तत्र अस्ति शेमुचादीनाम् इत्युक्ते मुचादिगणीयधातोः श प परे नुमागमः भवति इति. अतः विद् मुचादिगणीयधातुः नकारः तत्र आगमम् आगच्छति. मिदचो अन्त्यात् परः इति सूत्रेण विन्द इति भवति, इकारस्य परे भवति विन्द इति भवति.
उत्तम. विद् धातुः बहुषु गणेषु अस्ति, किन्तु केवलं तुदादिगणीयविद् धातोः प्रसङ्गे एव वदन्ती अस्मि. क्षेमुचादीनाम् इत्यनेन नुमागमः भवति. विन्द् दन्त्यनकारयुक्तं रूपं, पश्चात् नश्चापदान्तस्य झलि इत्यनेन अपदान्तकार्यं भूत्वा अनुस्वारसहितं रूपं, पश्चात् अनुस्वारस्य ययि परसवर्णः इत्यनेन तवर्गीय अन्तिम अनुनासिकव्यञ्जनं पञ्चमवर्णादेशः भूत्वा अन्तिमं रूपं तु विन्दति इत्युक्ते दन्त्यनकारयुक्तं रूपमेव आयाति. तत्र भेदम् अवगन्तुं न शक्नुमः. आदौ अपि नकारः एव आयाति, किन्तु सन्धिकार्यद्वयानन्तरम् अपि दन्त्यनकारः एव तत्र दृश्यते. पदं नास्ति इति कारणतः अपदान्तकार्यं, नश्चापदान्तस्य झलि, अपि च अनुस्वारस्य ई परसवर्णः इति सूत्रद्वयेन परसवर्णयुक्तं रूपम् एव लेखनीयं, वैकल्पिकं नास्ति. भगिनी, घण्टा इति पदमस्ति, कथं लेखनीयं सन्धिकार्यं कृत्वा?
खम्टा इति अनुस्वारः अस्ति, अनुस्वारस्य एयि परसवर्ण इति सूत्रेण तत्र टवर्गीय पञ्चमवर्णः अनुनासिकवर्णः आगच्छति. खण्टः, खण्टा वा खण्ट, खण्टा इति रूपम् एक विकल्पेन न भवति, अपदान्तकार्यमस्ति, एकमेव रूपं खण्डा.
अम्बा,
अम्बा अपि तत्र तदैव अम् योग अम् बा, तत्रापि अनुस्वारः अस्ति, परे पवर्गीय बकारः अस्ति, अतः अनुस्वारस्य एयि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने पवर्गीय पञ्चमवर्गीयवर्णः अनुनासिक मकारः आगच्छति. अम्ब विकल्पेन न भवति, एकमेव रूपम् अपदान्तकार्यम्.
पञ्जरम्,
पञ्जरं तत्रापि पञ्जरम् अनुस्वारमस्ति, जकारः अस्ति अनुस्वारस्य परे, पदं नास्ति, अतः अनुस्वारस्य ऐ परसवर्णः सूत्रस्य कार्यं भवति. जकारः च वर्गीयवर्णः, च वर्गीयवर्णे ङकारः अस्ति इक्वलन्तु अनुस्वारः, अतः ञकारः आगच्छति परसवर्णः, अतः पञ्जरम् इति रूपम् एकम् एव रूपम्.
कुञ्चित, कुञ्चित
च च अस्ति न प्रथम कुञ्चित, तत्रापि कुञ्चित. कुम् इति पदमस्ति वा न जानामि भगिनि.
पदं नास्ति,
पदं नास्ति चेत् कुम् अनुस्वारः अस्ति ककारस्य उपरि, कुञ्चित तत्रापि परे चकारः अस्ति, अपदम् अस्ति, अतः अनुस्वारस्य एयि परसवर्णः इति सूत्रेण चवर्गीय पञ्चमवर्णः मुखानुनासिके उक्तं ञकारः आगच्छति नासिक उक्त अनुस्वारस्य स्थाने, अतः कुञ्चित इति एकमेव रूपम् अपदकार्यम् अपदान्तकार्यम्.
उत्तमं, धन्यवादाः भगिनी. एतेषु पदेषु वैकल्पिकं रूपं नास्ति, नित्यरूपेण अनुस्वारस्य ई परसवर्णः इति सूत्रेण परसवर्णयुक्तं रूपम् एव लेखनीयम्. अन्यानि कानिचन पदानि वदामि. गीताञ्जलिभगिनी कृपया वदतु. शङ्का,
शङ्का तत्र शङ्का तत्र अनुस्वारस्य परवर्ण ककार अस्ति, कवर्गीय अनुनासिकवर्ण ङकार अस्ति, अधुना अनुस्वारस्य यै परसवर्णसूत्रेण परवर्ण ककार अस्ति कवर्गीय अनुनासिकवर्ण ङकार अस्ति चेत् शङ्का, तत्र अनुस्वारस्य स्थाने ङकार आयाति, शङ्का इति भवति.
एकमेव रूपं खलु?
एकमेव रूपं नित्यं.
परसवर्णयुक्तं रूपं लेखनीयं. मुण्डनं वदतु.
हा, मुण्डनं, तत्र मुण्डनं, तत्र अनुस्वारस्य परवर्ण अस्ति डकार, इत्युक्ते मूर्धन्य डकार अस्ति. मूर्धन्य अनुस्वारवर्ण अस्ति णकार. तत्र अनुस्वारस्य यै परसवर्णसूत्रेण अपि पुनः कार्यं करोति. तत्र अनुस्वारस्य स्थाने णकार आयाति. मुण्डनं किं पदं, किं भगिनि, मुण्डनं वा?
मुण्डनं,
हा, मुण्डनं, तत्र नित्यं मुण्डनं, तदेव लेखनीयं.
टवर्गीय मूर्धन्यणकारयुक्तं रूपं लेखनीयं. शान्तः,
शान्तः, तत्र अपि अनुस्वारस्य ययि परसवर्णसूत्रस्य परवर्ण तकार अस्ति, इत्युक्ते तवर्गीय तथा दध न, अन्तिम अनुस्वारस्य वर्ण नकार अस्ति. अनुस्वारस्य स्थाने अनुस्वारस्य यै परसवर्णसूत्रेण नकार आयाति, शान्तः, नित्यं, तदेव लेखनीयम्.
मन्दिरं,
मन्दिरं, दकार अपि तवर्गीय अस्ति तथा दधन. मन्दिरम् अनुस्वारस्य यै परसवर्णसूत्रेण नकार आयाति अनुस्वारस्य स्थाने.
उत्तमं, धन्यवादाः भगिनी. एतावत्पर्यन्तं वयं किं दृष्टवन्तः? अनुस्वारस्य अनन्तरं वर्गीयव्यञ्जनमस्ति चेत् तत्तत् वर्गीयपञ्चमसदस्यादेशः भवति इति अवगन्तुम् इमानि उदाहरणानि. वर्गीयव्यञ्जनम् अनुस्वारात् परं नास्ति चेत् किं भवति इति एकवारम् अवलोकयामः. कानिचन पदानि वदामि. भगिनी एकवारं वदतु, अंशः कथं लेखनीयम्?
अंशः तु, अंशः तु शकार अस्ति परवर्ण. शकारस्य किमपि विशिष्टवर्गीय वर्गस्य वर्ण नास्ति. तत्र अनुस्वारस्य स्थाने अनुस्वार एव तिष्ठति. तत्र किमपि अन्यवर्ण न इति भगिना, भगिनि
भिन्नरीत्या वदामश्चेत्, अनुस्वारस्य यै परसवर्णः इति उक्तमस्ति खलु, यै प्रत्याहारे सशासाः वर्णाः न सन्ति इति एका वार्ता. अनुस्वारात् परम् एतेषु चतुर्षु वर्णेषु अन्यतमवर्णः अस्ति चेत् तत्र अनुस्वारः यथावत् तिष्ठति, तत्र परसवर्णादेशः न भवति. अंशः इत्यत्र तालव्यशकारः अस्ति, तालव्यशकारस्य कृते परसवर्णः नास्ति, अपि च यै प्रत्याहारस्थवर्णः नास्ति. हंसः, हंसः वदतु.
हा, हंसः, क्षम्यतां भगिनि, तदहं सम्यक्तया न उक्तवती. अस्तु, हंसः तत्र अपि परवर्णसकार अस्ति, तदपि यै प्रत्याहारस्य अन्तर्भूता नास्ति. तेन हंसः अनुस्वार एव तिष्ठति, किमपि परिवर्तनं न भवति. तत्र अनुस्वारस्य यै परसवर्णसूत्रमेव न प्रसक्तिः.
उत्तमम्, एवमेव कंसः खलु. वंशः, वंशः इत्यत्रापि तालव्यशकारः अस्ति. सिंहः, तत्र
अपि यै नास्ति, हयवरट् अस्ति तत्र, इत्युक्ते ह तत्र तदपि न आयाति. अन्तिम माहेश्वरसूत्राणि अपि हल् नास्ति. यै यै प्रत्याहारस्य अन्तर्भूता नास्ति चेत् अनुस्वारस्य यै परसवर्णसूत्रं न प्रसक्ति चेत् तदेव तिष्ठति.
उत्तमं, सशसः वर्णाः यै प्रत्याहारे न सन्ति, तत्र परसवर्णादेशः न भवति, तदर्थम् अनुस्वारयुक्तं रूपमेव लेखनीयम्. एतावत्पर्यन्तं वयं नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः द्वयोः प्रसङ्गे इमानि कानिचन उदाहरणानि. इदानीं भिन्नानि पदानि एकवारम् अवलोकयाम. नरसिंह हेग्डे महोदय, कृपया एकवारं वदतु, संज्ञा इति पदमस्ति, कथं लेखनीयम्? एकवारं सर्वे लिखन्तु, इच्छन्ति चेत् पदानि वदामि चिन्तनार्थं. संज्ञा, सम्पूर्णं, सम्पत्तिः, सम्पन्नः, संख्या, सञ्चारः, सन्दर्शनं, सम्भवः, सम्मेलनं, संयमः, संयोगः, संलापः, संवादः. पुनः वदामि, संज्ञा, सम्पूर्णं, सम्भवः, सम्पत्तिः, सम्पन्नः, संख्या, सञ्चारः, सन्दर्शनं, सम्मेलनं, संयमः, संयोगः, संलापः, संवादः. पञ्चदशपदानि इति भाति. संज्ञा इति पदं कथं लेखनीयम्? अत्र कीदृशानि सन्ति कार्याणि भवन्ति, वदतु महोदय.
अहं सम्यक्तया न जानामि महोदय. संज्ञा, अहं संयमः वदामि.
संयमः वदतु.
संयमः अत्र अनुस्वारस्य पौरसवर्णसूत्रेण स अनन्तरम् अनुना चन्द्रबिन्दुयुक्त यकारायाति, अनन्तरं यकारायाति, अनन्तरं मकार. संयमः अत्र प्रथमतया यकार उपरि चन्द्रबिन्दु आयाति, अनन्तरं यकारायाति, अनन्तरं मकारायाति.
अत्र रूपद्वयम् अस्ति वा?
हा, रूपद्वयम् अस्ति, विकल्प अस्ति अत्र.
एकं रूपम् अनुस्वारयुक्तं रूपम्, अन्यद् रूपम् अनुनासिकयकारयुक्तं रूपं, खलु?
आमाम् आम्.
एवमेव संयोगः वदतु.
संयोग अत्रापि विकल्प अस्ति, एकम् अनुस्वारयुक्त अस्ति संयोग, अनन्तरं यकारस्य उपरि चन्द्रबिन्दुः अस्ति, अनुनासिकयुक्त यकार, अनन्तरं संयोगः अत्र विकल्पेन अस्ति.
केन सूत्रेण भवति?
अनुस्वारस्य यै परसवर्णः, अत्र पौरसवर्णयकारस्य यवले इति यकारस्य वकारस्य लकारस्य अनुनासिक उपरि चन्द्रबिन्दुः आयाति, वर्णत्रयम् उपरि.
अत्र केन सूत्रेण कार्यं भवति इत्युक्ते वापदान्तस्य सूत्रेण कार्यं भवति. किमर्थं वापदान्तस्य?
अपदान्ते अस्ति, पदान्ते नास्ति.
न चिन्तनं कथं भवेत्?
पदमस्ति भगिनि.
गीताञ्जलि भगिनी वदतु.
उपसर्ग अपि पदं, पदसंज्ञा भवति, तेन पदद्वयं तत्र स्तः. प्रथमपदं तु उपसर्ग अस्ति, तेन वा पदान्तस्य इति कार्यं करोति,
खलु महोदय? सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव, उपसर्गस्य अपि पदसंज्ञा अस्ति एव इति कृत्वा तत्र पदद्वयमस्ति. सम् इति एकं पदं, यमः इति अन्यत् पदं. तत्र वैकल्पिकं रूपम् अन्यदस्ति, विकल्पेन रूपद्वयं सिद्ध्यति वा पदान्तस्य इति सूत्रेण. अत्र पदान्तकार्यं भवति इति कृत्वा संयमः, संयमः. अनुनासिकयकारयुक्तं रूपम् एकमस्ति, अनुस्वारसहितं रूपम् अन्यदस्ति. महोदय भवान् वदतु, संलापः कथं लेखनीयम्?
संलापः अपि विकल्पेन सम् अनुस्वारयुक्त संलापः, अनन्तरं अनुनासिकयुक्तलकारं सं लापः. प्रथमतया लकारस्य उपरि चन्द्रबिन्दुः, अनन्तरं लकार, अनन्तरं प, संलाप, संलाप.
उत्तमम्
महोदय. अत्र पदान्त अपदान्त बहु भ्रमः भवति. पदान्त अपदान्त इत्युक्ते कुत्रापि लिखति पदस्य अन्ते अकारः अस्ति इति, कुत्रापि लिखति अपदान्त इत्युक्ते पदं नास्ति इति, तत्र बहु भ्रमः भवति. पदान्त अपदान्त पदस्य मध्ये अन्ते.
नश्च अपदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः, एतत् सूत्रद्वयम् अपदान्ते कार्यं करोति. मोनुस्वारः अपि च वापदान्तस्य, एतत् सूत्रद्वयं पदान्तकार्यं करोति, तत्र सूत्रे एव उक्तमस्ति.
पदस्य अन्ते अकारः अस्ति चेदपि अपदान्तः वदति वा? पदस्य अन्ते अकारः अस्ति चेदपि अपदान्तः वदति?
वदतु पुनः.
अकारः अस्ति चेत् अपदान्तः इति वदति, पद नास्ति चेदपि अपदान्तः वदति, पदं वदति.
नञ् समासः अस्ति, यत् पदान्ते नास्ति तत् अपदान्त इति वक्तव्यमस्ति. पदस्य अन्ते अकारः अस्ति इति अर्थः तत्र नास्ति. पदस्य अन्ते यत् कार्यं नास्ति तत् अपदान्तकार्यम्.
कुत्रापि पठित्वा नाम अपदान्त इत्युक्ते पदस्य अन्ते अकारः इति?
सत्यम् असत्यम् इव पदान्तकार्यम् अपदान्तकार्यं नञ् समासयुक्तं पदमस्ति. समलापः इत्यस्मिन् प्रसङ्गे अपि रूपद्वयं सिद्ध्यति वा पदान्तस्य इति सूत्रेण. पुंलिङ्ग इत्यत्र किं भवति वदतु भवान् एव.
पुंलिङ्ग इत्यत्रापि तदेव अस्ति. पुम् अनुस्वारयुक्त पुल्लिङ्ग लेखितुं शक्नुमः. अनन्तरम् अनुस्वारयुक्तलकार अनुनासिकयुक्तलकार लकारस्य उपरि चन्द्रबिन्दु युक्तं लकार लिखित्वा लेखितुं शक्नुमः. द्वयम् विकल्पेन
द्विधा लेखितुं शक्यते. अनुस्वारयुक्तं रूपम् एकं रूपं पुंलिङ्ग पुंलिङ्ग, अनुनासिकलकारयुक्तं रूपम् अन्यद् रूपम् अस्ति. एवमेव संवादः वदतु.
तत्रापि रूपद्वयम् अनुनासिक अनुस्वारयुक्तः संवादः, अनन्तरं वकारस्य उपरि चन्द्रबिन्दु संवादः अनुनासिकयुक्त वकारः. अत्र वय वर्णत्रयमस्ति, यवले यकार वकार लकार, तत्र तत् रूपम् आयाति, उपरि चन्द्रबिन्दु आयाति. तत् विकल्पेन संवाद इति संवाद इति द्वयं समानम्.
उत्तमम्, साधु महोदय, धन्यवादाः. यवल परे चेत् किं भवति इति वयं दृष्टवन्तः. मम पुरतः अन्यानि पदानि सन्ति. रोहिणी भगिनी, भवती वक्तुमिच्छति वा? एकमेकं कृत्वा वदतु. संज्ञा कथं लेखनीयम्?
संज्ञा अत्र अनुसारयुक्तः अपि भवति, मकार अपि भवति.
परसवर्णयुक्तं रूपम् एकं रूपम्, अनुस्वारयुक्तं रूपम् अन्यद् रूपम् अस्ति. किमर्थम् इत्युक्ते तत्रापि सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव. अत्र पदान्तकार्यं भवति, पदान्त अनुस्वारस्य स्थाने
पदान्तस्य इति सूत्रेण भवति विकल्पेन. अनन्तरं सम्पूर्णं तत्रापि अनुस्वारयुक्तः भवति, अनुनासिकयुक्तः अपि भवति. पकारस्य सवर्णः भवति मकारः, परसवर्णः, पञ्चमवर्णः पप बम सम्पूर्णं भवति अथवा अनुस्वारयुक्त वा पदान् क्षम्यतां वा पदान्तस्य सूत्रेण अनुस्वारः भवति अथवा अनुनासिकयुक्तः अपि भवति.
अनुस्वारयुक्तं रूपम् एकं रूपं, परसवर्णयुक्तं रूपम् अन्यद् रूपं, विकल्पेन रूपद्वयम् अस्ति. सम्भवः वदतु.
तत्रापि अनुस्वारयुक्तः भवति, अनुनासिकयुक्तः अपि भवति. पप अत्र मकारस्य युक्तेन सम्भवः भवति अथवा अनुस्वारयुक्तेन सम्भवः भवति. विकल्पेन द्वे रूपे अस्ति.
विकल्पेन रूपद्वयमस्ति, रूपद्वयमस्ति, रूपत्रयमस्ति, रूपचतुष्टयमस्ति इति वक्तव्यं. रूपद्वयं स्तः इति असाधुप्रयोगः. साधु भगिनी, सम्पन्नः वदतु.
तत्रापि सम्पन्नः अनुसारयुक्तः अपि भवति वापदान्तस्य इति सूत्रेण अथवा अनुसारस्य ये परसवर्णः इति सूत्रेण परसवर्णः सम्पत्तिः भवति, सम्पत्तिः भवति, रूपद्वयं भवति.
आहत्य अत्र किम् अवगन्तव्यं? सम् इति उपसर्गः, उपसर्गः अपि पदमेव, तदर्थं पदान्तकार्यं भवति, तदर्थं वा पदान्तस्य इति सूत्रेण रूपद्वयं. पदधातोः रूपमेव सम्पन्नः, एवमेव सम्पत्तिः. सम्पत्तिः इति अपि सम् उपसर्गपूर्वकः पदधातुतः क्तिन् प्रत्ययस्य योजनेन सम्पत्तिः. सम्पन्नः इति पदं
तप्रत्ययेन सम्पन्नः, नकारस्य नकारादेशः भवति, तत् सूत्रं न स्मरामि.
तदाभ्यां निष्ठातः सूत्रमस्ति. कृतान्तरूपमेव सम्पन्न, सम्पन्ना, सम्पत्ति, एतत् पदद्वयं पद् धातुतः निर्मितं. संख्या कथं लेखनीयम्?
अत्रापि अनुस्वारयुक्तं संख्या भवति अथवा अनुनासीययुक्त ककारस्य अनुनासीय ङकारयुक्तः संख्या अपि भवति.
संख्या इत्यत्रापि सम् उपसर्गः अस्ति इति कारणतः रूपद्वयमस्ति. सञ्चारः वदतु.
तत्रापि रूपद्वयं भवति, सञ्चारः संचारः. च ञकारः भवति, च वर्गीय अनुनासीयवर्णः.
उत्तमम्.
क्षम्यतां भगिनी, क्षम्यतां. संज्ञा तथा संख्या इति पदे सदैव सर्वदा अनुस्वारयुक्तं पदमेव दृष्टवन्तः खलु? पुस्तके कुत्रापि संज्ञा पञ्चमवर्णं न दृष्टम्, अनुस्वारमेव सदैव आगच्छति लेखने.
किन्तु मया दृष्टं भगिनि, अन्यद् रूपम् अस्ति.
अस्ति खलु, भवतः उदाहरणं दृष्टं तथैव दृश्यते, किन्तु सदैव पुस्तके संख्या अनुस्वारमेव आगच्छति. संज्ञा कदापि न अवगत दृष्टं. संज्ञा पञ्चमवर्णं, जकारस्य पञ्चमवर्णं न दृष्टम्.
एवं वा, अस्तु, धन्यवादाः रोहिणी भगिनी. वीणा भगिनी भवती वदतु, सन्दर्शनं कथं लेखनीयम्?
तत्रापि अनुस्वार पदमस्ति, सम् इति उपसर्गः पदमस्ति, तत्रापि रूपद्वयम् अस्ति, सम् अनुस्वारयुक्तम् अथवा सन्दर्शन् नकार पञ्चम दकारस्य पञ्चमवर्गं नकारः आगच्छति, रूपद्वयं भवति.
उत्तमं. सम्मेलनं वदतु.
तत्रापि तथैव सम्मेलनम् अनुस्वारयुक्तम् एकं रूपं मकारस्य द्वित्वं भवति, मकार पञ्चमवर्गम् आगच्छति, तथा रूपद्वयं भवति.
उत्तमम्. एतावत्पर्यन्तं वा पदान्तस्य इति सूत्रेण रूपद्वयं सिद्ध्यति. भगिनी वदतु,
पुल्लिङ्गः पुं पदमस्ति वा? भगिनी तत्र उदाहरणं दत्तवती न, अत्र वयम् अभ्यासं कुर्मः कृतवन्तः, तत्र पुल्लिङ्गः रूपद्वयम् उक्तवती, पुं पदं नास्ति इति अहं चिन्तयामि भगिनि.
द्विधा लेखितुं शक्यते, अनुस्वारयुक्तं रूपम् एकं रूपम्, अन्यद् रूपम् अनुस्वारस्य स्थाने अनुनासिकलकारः पश्चात् एकः अन्यलकारः.
आम्, रूपद्वयम् अस्माभिः दृष्टं भगिनि, तद् सत्यं, परन्तु पुम् इति पदं वा, तत् संशयः, सः संशयः मम पदम् अस्ति चेदेव रूपद्वयं भवति न, वा पदान्तस्य सूत्रेण.
आम्,
तो पुं पदम् अहं न जानामि भगिनि.
चिन्तनीयं. वीणा भगिनी वदतु, वाक्यानि एकवारं वदामि. अहं करोमि, त्वं चलसि, पाठं पठति, रामं नमति, अहं भवामि, ग्रामं गच्छति, तृणं चरति, फलं खादति, ग्रामं याति, धनं लभते, सत्यं वदति. दशवाक्यानि इति भाति. पुनः वदामि, अहं करोमि, त्वं चलसि, नदीं तरति, पाठं पठति, रामं नमति, अहं भवामि, ग्रामं गच्छति, तृणं चरति, फलं खादति, ग्रामं याति, धनं लभते, सत्यं वदति. अहं करोमि, भगिनी वदतु.
अहं करोमि वा पदान्तस्य इति सूत्रेण अनुस्वारम् अपि लेखितुं शक्यते, अथवा यै परसवर्णः इति सूत्रेण, अनुस्वारस्य यै परसवर्णः इति सूत्रेण, अहं ककारस्य ङकारः पञ्चमवर्गः भवति, अहं करोमि अथवा अहं करोमि इति रूपद्वयं भवति.
अत्र यै वर्णः कः?
यै वर्णः क अस्ति खलु,
ककारः यै प्रत्याहारः,
ककारः यै वर्णः.
उत्तमम्. अहं करोमि इत्यत्र अनुस्वारयुक्तं रूपम् एकं रूपं, परसवर्णयुक्तं रूपम् अन्यद् रूपम्। अहं करोमि, अहं करोमि, त्वं चलसि, वदतु।
तत्रापि तथैव भवति, त्वं चलसि एकं रूपम् अनुस्वारयुक्तं भवति, त्वं तकारः यै परसवर्ण यै प्रत्याहारे अस्ति, अतः
चलसि इत्यत्र परशब्दः
च अस्ति, अतः तत्रापि त्वं चल त्वं चलसि अथवा त्वं चलसि चकारस्य पञ्चमवर्गः आदेशः भवति, नो चेत् त्वम् अनुस्वारः इति भवति।
वैकल्पिकं रूपमपि
वैकल्पिकरूपम्।
अत्र वापदान्तस्य कार्यं किमर्थं भवति?
वा पदद्वयम् अस्ति, त्वम् इति एकं पदं, चलसि इति अन्यत् पदम् अस्ति।
उत्तमं। नदीं तरति कथं लेखनीयम्?
नदीं तरति, तत्रापि नदीम् एकं पदम् अस्ति, तरति एकं पदम् अस्ति, वैकल्पिकरूपम् अपि भवति, तथा नो चेत् नदीम् अनुस्वारयुक्तम् एकं, नदीं तरति अथवा नदीं तरति, तकारस्य पञ्चमवर्गः नकारः अस्ति, नदीं तरति अथवा नदीं तरति।
उत्तमं भगिनि। अनुस्वारयुक्तं रूपम् एकं, दन्त्यनकारयुक्तं रूपम् अन्यदस्ति, नदीं तरति। पाठं पठति, तत्र वदतु।
पाठं पठति, तत्रापि पदद्वयम् अस्ति, पाठम् एकं पदं, पठति एकं पदं, वा विकल्पेन इति वा पदान्तस्य इति सूत्रेण पाठन् पाठं पठति एकं रूपं भवति, नो चेत् पाठम् अनुस्वारयुक्तम् एकं रूपं भवति, पाठं पठति।
रामं नमति,
रामं नमति, रामम् अपि अनुस्वारयुक्तम् एकं रूपं भवति, नो चेत् रामन् नमति, रामन् नमति, नकारस्य नकार एव भवति वा भगिनी, रामं नमति अथवा रामन् नमति, नकारस्य नकारम् अन्यत् एकनकारं पञ्चमनकारं पञ्चमवर्णम् आगच्छति, नो चेत् अनुस्वारम्।
उत्तमं भगिनि, तदेव रामम् इति पदमस्ति, द्वितीयाविभक्ति एकवचनं रूपम् अस्ति, प्रातिपदिकस्य अन्ते सुप्रत्ययः अस्ति, सुप्तिङन्तं पदम् इति सूत्रेण रामम् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा वा पदान्तस्य इति सूत्रेण पदान्त अनुस्वारस्य स्थाने विकल्पेन वा इत्युक्ते विकल्पेन परसवर्णादेशः भवति। परसवर्णः इत्युक्ते अनुस्वारात् परं यः वर्णः अस्ति तस्मिन् वर्गे अनुस्वारेण सदृशवर्णः आदिष्टः भवति इति अस्माभिः पठितं खलु। तदर्थं रामं नमति इत्यत्र नकारः यै प्रत्याहारस्थवर्णः परवर्णः, नकारः तवर्गीय अन्तिमव्यञ्जनम् अस्ति इति कृत्वा अनुस्वारस्य स्थाने दन्त्यनकारः आयाति इति कृत्वा द्वितीयं रूपं रामन् नमति। अग्रिमानि कानिचन वाक्यानि वदामि, भगिनी भवती एव वदतु, नो चेत् कोऽपि अन्यः वक्तुमिच्छति वा।
भगिनि एकः प्रश्नः, पाठं पठति इत्यत्र पदान्तमकारस्य अनन्तरं व्यञ्जनवर्णः अस्ति खलु, अतः मका अनुसारः एव लेखनीयः इति नियमः अस्ति खलु।
पाठं पठति इत्यत्र पाठः इति पुंलिङ्गशब्दः, पाठः इति प्रथमान्तं पदं, पाठम् इति द्वितीयान्तं पदम्, अस्य प्रातिपदिकस्य अन्ते सुप्रत्ययः अस्ति, सु औजस् अम् औट् शस् अम् इति प्रत्ययः अस्ति, सुप्रत्ययः अस्ति इति कारणतः सुप्तिङन्तं पदम् इति सूत्रेण अत्र पाठम् इति शब्दस्य पदसंज्ञा अस्ति, पदसंज्ञा अस्ति इति कारणतः अत्र वा पदान्तस्य इति सूत्रेण पदान्ते अनुस्वारः अस्ति, पूर्वं मकारः अस्ति, मोनुस्वारः सूत्रेण सः मकारः अनुस्वाररूपेण परिवर्त्यते, आदौ मोनुस्वारः सूत्रेण पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति, मोनुस्वारः इति सूत्रेणापि पदान्तकार्यं भवति, अनुस्वारादेशः भवति, तेन अनुस्वारयुक्तं रूपं तत्र अस्ति, मकारस्य परिवर्तनं अनुस्वाररूपेण अभवत् मोनुस्वारः सूत्रेण, तेन अनुस्वारयुक्तं रूपम् अस्ति। पठति इत्यत्र पकारः यै प्रत्याहारस्थवर्णः, वा पदान्तस्य इत्यस्मिन् सूत्रे निमित्तं यै अस्ति. अनुस्वारस्य ययि परसवर्णः इति सूत्रात् बहूनि पदानि वा पदान्तस्य इत्यस्मिन् सूत्रे अनुवृत्तानि भवन्ति. केवलं सूत्रं पठनेन किमपि अवगन्तुं न शक्नुमः, अनुवृत्तेः अवगमनम् आवश्यकम्. वा इति कथनेन विकल्पेन पदान्तस्य इत्युक्ते पदान्तानुस्वारस्य पाठम् इत्यत्र पदान्तानुस्वारः अस्ति, पश्चात् यै वर्णः अस्ति, पकारः पवर्गीयव्यञ्जनमस्ति, वर्गीयव्यञ्जने परे तत्तत् वर्गीयपञ्चमसदस्यादेशः विकल्पेन भवति वा पदान्तस्य सूत्रेण. अतः अत्र रूपद्वयम् अनुस्वारयुक्तं रूपम्, एकं मकारं लिखित्वा पाठं पठति इति रूपमपि तत्र लेखितुं शक्यते.
एकः प्रश्नः भगिनी, पकारः इति जिह्वामूलीया अस्ति, अतः कुप्पौ कप्पौ च सूत्रं न आगच्छति वा? अत्र प्रसङ्गः नास्ति वा?
कुप्पोः कप्पौ च इति विसर्गसङ्गे आयाति, अत्र नास्ति.
अहं चिन्तयामि अनुस्वारयुक्तपदम् अनुस्वारयुक्तपदं यदा पाठं लिखामः चेत् पदद्वयरूपेण एव लिखितव्यं न, पाठं पठति. एकपदम् अस्ति चेत् पाठं पठति इति पदं रूपमेव भवति, अथवा पाठं पठति इति पदद्वयरूपेण लिखितमस्ति. तद् वीणा भगिन्याः प्रश्नस्य समाधानं भवति वा?
हा, यदा भवती उक्तवती तदा एव मम अपि चिन्तनम् अस्ति.
अस्तु,
पाठं पठति तत्र हलिपरे पाठम् अनुस्वारः अस्ति तत्र, परन्तु वा पदान्तस्य कार्यं करोति तो पाठ मकारः आगच्छति, पाठं पठति इति रूपं. यदा वयं पाठं पठति लिखामः तदा एकपदमेव लिखामः, पाठं पठति इति पदम् एकमेव भवति, परन्तु पाठं पठति इति लिखामः चेत् पदद्वयं भवति, तो तदपि साधु, पाठं भवति अपि साधु. अनुस्वारयुक्तपदम् एकपदं न भवति, पाठं पठति इति एकपदरूपेण वयं न लिखामः न.
आम्, सत्यभामा भगिनी किञ्चित् वदतु, अहं भवामि कथं लेखनीयम्?
अहं भवामि, अत्र पदद्वयं वर्तते, अहम् इति एकं पदं, भवति इति, भवामि भवामि इति द्वितीयपदम्. अहं भवामि अत्र द्विधा लेखितुं शक्यते, अहं भवामि अपि च अहं भवामि, वा पदान्तस्य इत्यनेन अपि लेखितुं शक्यते. तदनन्तरं ये अनुस्वारस्य ई पदसवर्णः इत्यनेनापि लेखितुं शक्यते.
ग्रामं गच्छति वदतु.
ग्रामं गच्छति, अत्रापि द्विधा लेखितुं शक्यते, ग्रामं गच्छति अपि च ग्रामं गच्छति इति अपि.
किञ्चित् विवृणोतु.
ग्रामं गच्छति, यदि वयं ग्रामं गच्छति इति लिखामः चेत् अत्र मकारः अनुस्वारः तिष्ठति, तदस्ति वा पदान्तस्य इति सूत्रेण. यदि वयं गच्छति इत्युक्ते परसवर्णः लेखितुम् इच्छामः चेत् अत्र अनुस्वारस्य ई परसवर्णः इति सूत्रेण मकारः आगच्छति, मकारस्य स्थाने द्वितीयरूपं ग्रामं गच्छति इति भवति.
उत्तमं. तृणं चरति.
तृणं चरति, तृणम् एकं पदं, चरति इति द्वितीयपदं, चकारस्य पञ्चमवर्णः अस्ति ञकारः. इदानीं प्रथमं वापदान्तस्य इति सूत्रेण अत्र मकारस्य अनुस्वारादेशः भवति, सो अत्र तृणं चरति इति एव एकं रूपं. द्वितीयरूपमस्ति चकारस्य पञ्चमवर्णः परसवर्णः मकारस्य स्थाने आगच्छति, अनुस्वारस्य यै परसवर्णः.
अत्र तु नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः एतयोः कार्यं नास्ति. अत्र पदान्तकार्यं मोनुस्वारः सूत्रस्य कार्यमस्ति, अपि च वा पदान्तस्य कार्यम् अस्ति, कुत्र पदान्तकार्यं भवति कुत्र अपदान्तकार्यं भवति इत्यस्मिन् विषये स्पष्टता भवेत्। अत्र तु केवलं पदान्तकार्यम्। इदानीं वदतु
भगिनी, तृणं चरति इति पदद्वयम् अस्ति खलु
अत्र पदान्तकार्यं, कैः कैः सूत्रैः कार्याणि भवन्ति?
तृणं चरति इति इत्यत्र मोन्सोन् पदद्वयम् अस्ति चेत् अत्र वा पदान्तस्य इति सूत्रस्य प्रसक्तिः अस्ति इति मम चिन्तनमस्ति।
उत्तमम्। अहं किं वदन्ती अस्मि इत्युक्ते, तस्मात् पूर्वं मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारः आगतः, तस्मात् परमेव वदतु।
प्रथमं मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति, तदनन्तरम् एव वा पदान्तस्य इति सूत्रस्य प्रसक्तिः अस्ति इति एव।
यथा भवत्या उक्तं द्विधा लेखितुं शक्यते। फलं खादति वदतु।
फलं खादति, फलं खादति, तत्रापि द्विधा लेखितुं शक्यते। एकं तत्रापि मोनुसारः इत्यनेन एव मकारस्य अनुसारादेशः भवति फलम् इत्यत्र। यदा अनुसारादेशः भवति वा पदान्तस्य इति सूत्रेण एकरूपं फलं खादति। तदनन्तरं यै पर इदानीं परवर्णः अस्ति खा, खादति खा खा, अतः परसवर्णः अस्ति ङकारः, फलं खादति इति द्वितीयरूपम् आगच्छति।
उत्तमम्। एतावत्पर्यन्तं वयम् अनुस्वारात् परं वर्गीयव्यञ्जनमस्ति चेत् वा पदान्तस्य इति सूत्रेण विकल्पेन रूपद्वयं सिद्ध्यति इति परिशीलितवन्तः। इदानीं वर्गीयव्यञ्जनं नास्ति, यवलवर्णाः सन्ति चेत् किं भवति इति अवलोकयाम। भगिनी भवती एव वदतु। ग्रामं याति वदतु।
ग्रामं याति, ग्रामं याति इति एकं रूपं तद् अस्ति वा पदान्तस्य इति सूत्रेण रूपं भवति। तदनन्तरम् एकं रूपं ग्रामं याति इति, एकं यकारः अस्ति अनुसारः यकारः, पुनः सामान्यः यकारः अपि भवति, ग्रामं याति, अत्रापि रूपद्वयं वर्तते।
अनुस्वारः भिन्नः, अनुनासिकः भिन्नः खलु?
आम् आम्,
अत्र अनुनासिकयकारः लेखनीयः खलु?
क्षम्यतां, दोषेन उक्तवती, अनुनासिकयकारः
चन्द्रबिन्दुयुक्तयकारः खलु?
चन्द्रबिन्दु, तदेव महोदय।
उत्तमं। धनं लभते कथं लेखनीयं?
तत्रापि धनम् अपि च लभते, धनं लभते इति वा पदान्तस्य इति सूत्रेण एकं रूपं। तदनन्तरं धनं योगः अनुनासिकयुक्तलकारः अपि च सामान्यलकारः धनं लभते इति द्वितीयरूपं,
तत्रापि रूपद्वयं लेखितुं शक्यते।
सवर्णः इति सूत्रेण एकं रूपं।
तत्र किं वक्तव्यं? धनमिति एकं पदमस्ति, लभते इति अन्यत् पदमस्ति, लकारः यै प्रत्याहारस्थवर्णः, किन्तु वर्गीयव्यञ्जनं नास्ति, यै प्रत्याहारे अस्ति इति कृत्वा अनुस्वारस्य स्थाने लकारस्य परसवर्णः लेखनीयः। लकारस्य कृते परसवर्णः कः? चन्द्रबिन्दुयुक्तलकारः एव। तदर्थम् एकं रूपम् अनुस्वारयुक्तं रूपम्, अन्यद् रूपं चन्द्रबिन्दुसहितलकारयुक्तं रूपम्, तत्रापि वैकल्पिकं रूपम् अस्ति।
भगिनी अहं वदामि,
वदतु
गिव्मि वर्ड् भगिनी, अहं प्रयत्न करोमि।
सत्यं वदति वदतु
भगिनी। वदति सत्यं द्विपदमस्ति, अनुस्वारलकार भवति, वा यै परसवर्णे वकार पञ्चम वर्ण नकार भवति, सत्यं वदति।
तत्र रूपद्वयम् अस्ति वा?
हा हा सत्यं वदति, द्विरूपम् अस्ति।
इतोपि किञ्चित् वदतु, किं किं भवति, कथं लेखनीयं, केन सूत्रेण किं भवति?
सत्वं दट् इस् वकार अनुस्वारस्थाने नकार आयति
सत्यम् इति भिन्नं पदं, सत्वम् इति भिन्नं पदं खलु?
हा हा हा, क्षम्यतां भगिनि, ऐ हर्ड् सत्वं, सत्य वदति, यकार हा सत्यं, मकार अनुस्वारस्थाने मकार आयति, सत्यं वदति, व ययि परसवर्णे वकारस्य पञ्चवर्ण नकार आयति, सत्यं वदति।
अत्र रूपद्वयमस्ति, साधु उक्तवती सत्यभामा, सत्यं वदति, भवती अपि एकवारं विवृणोतु।
सत्यं वदति इत्यत्र पदद्वयं वर्तते, सत्यम् अपि च वदति। सत्यम् इत्यत्र मकारः अन्तिमवर्णः अस्ति, मोऽनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति। तदनन्तरं वा पदान्तस्य इति सूत्रेण सत्यं वदति इति एकं रूपं, पुनः इदानीं वा इति यै वर्णः अस्ति अनुस्वारस्य स्थाने परसवर्णः, वकारस्य परसवर्णः अस्ति चन्द्रबिन्दुसहित वकारः, तद् आदेशरूपेण अत्र आगच्छति। अतः इदानीं रूपद्वयं सत्यं वदति इति, सत्यं वदति अपि रूपद्वयं।
धन्यवादाः भगिनी, चत्वारि सूत्राणि गते वर्गे पठितवन्तः, तदर्थं वयं सर्वे मिलित्वा अभ्यासं कृतवन्तः, किन्तु नूतनं पाठं किमपि न पठितवन्तः। आगामिनि सप्ताहे तपरस्तत्कालस्य इति सूत्रस्य प्रसङ्गे किञ्चित् चिन्तनं करिष्यामः। गते वर्गे महोदयेन पृष्टमासीत् वा अन्यतरस्यां विभाषा विकल्पेन एतेषां मध्ये भेदः अस्ति वा इति प्रश्नः आगतः, अपि च स्थानेन्तरतमः इत्यस्मिन् सूत्रे स्थाने इति सप्तमी रूपं किमर्थमस्ति, स्थानेन अन्तरतमः इति अर्थः अस्ति चेत् तत्र सप्तमी विभक्तेः प्रयोगः किमर्थं कृतमस्ति, एवं रीत्या बहवः प्रश्नाः सन्ति। तेषां प्रसङ्गे चिन्तनं कृतवन्तः वा, प्रश्नानाम् उत्तराणि साधितवन्तः वा? भवन्तः जानन्ति चेत् वदन्तु, नो चेत् पृष्ट्वा वक्तुं शक्नोमि। तपरस्तत्कालस्य सूत्रस्य प्रसङ्गे आगामिनि सप्ताहे चर्चां करिष्यामः। धन्यवादाः।